श्रीमृत्युञ्जय मानसिक पूजा स्तोत्रम्
कैलासे कमनीय रत्न खचिते कल्पद्रुमूले स्थितम् कर्पूर स्फटिकेन्दु सुन्दर तनुम् कात्यायनी सेवितम् गङ्गा तुङ्ग तरङ्ग रञ्जित जटा भारम् कृपा सागरम् कण्ठालङ्कृत शेष भूषण ममुम् मृत्युञ्जयम् भावये आगत्य मृत्युञ्जय चन्द्रमौले व्याघ्राजिनालङ्कृत शूलपाने स्वभक्त संरक्षण कामधेनो प्रसीद विश्वेश्वर पार्वतीश भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालङ्कृते सौधे धूपसुवासिते मणिमये माणिक्यदीपार्जिते ब्रह्मेन्द्रामरयोगिपुङ्गवगणैः युक्ते च कल्पद्रुमैः श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्यसिंहासने मन्दारमल्लीकरवीरमाधवी पुन्नागनीलोत्पलचम्पकान्वितैः कर्पूरपाटीरसुवासितैः जलैराधस्वमृत्युञ्जयपाद्यमुत्तमम् सुगन्धिपुष्पप्रकरैः सुवासितैः वियन्नदीशीतलवारिभिः शुभैः त्रिलोकनाथार्तिहरार्ध्यमादराद् गृहाण मृत्युञ्जय सर्ववन्दित इमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः मृत्युञ्जय महादेव शुद्धा च मनमाचर गुडदधिसहितम् मधुप्रकीर्णम् सुहृत समन्वित वेणुदुग्धयुक्तम् शुभकर मधुपर्कमाहर त्वम् त्रिनयन मृत्युहर त्रिलोकवन्द्य पञ्चास्र शान्त पञ्चास्य पञ्चपादक संहर पञ्चामृत स्नानमिदम् कुरु मृत्युञ्जय प्रभो जगत्त्रयी ख्यात समस्त तीर्थ समाहृतैः कल्मषहारिभिश्च स्नानम् सुतोयै समुदाचर त्वम् मृत्युञ्जयानन्त गुणाभिराम आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमाद् मार्जयामि जटाभारम् शिव मृत्युञ्जय प्रभो नाना हेम विचित्राणि चिरचीनाम्बराणि च विविधानि च दिव्यानि मृत्युञ्जय सुधारय विशुद्धमुक्ता फलजालरम्यम् मनोहरम् काञ्चन हेम सूत्रम् यज्ञोपवीतम् परमम् पवित्रम् आधत्स्व मृत्युञ्जय भक्तिगम्य श्रीगन्धम् घनसार कुङ्कुमयुतम् कस्तूरिकापूरितम् काले येन हि माम्बुना विरचितम् मन्दार संवासितम् दिव्यम् देव मनोहरम् मणिमये पात्रे समारोपितम् सर्वाङ्गेषु विलेपयामि सततम् मृत्युञ्जय श्रीविभो अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः मृत्युञ्जय महादेव पूजयामि वृषध्वज चम्पकपङ्कज कुरवककुन्दैः करवीरमल्लिकाकुसुमैः विस्तारय निजमकुटम् मृत्युञ्जय पुण्डरीकनयनात् माणिक्यपादुका द्वन्द्वे मौनिहृत्पद्ममन्दिरे पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय माणिक्यकेयूरकिरीटहारैः काञ्चीमणिस्थापितकुण्डलैश्च मञ्जीरमुख्याभरणैर्मनोज्ञैः अङ्गानि मृत्युञ्जय भूषयामि गजवदनस्कन्दभृतेन अतिस्वच्छेन चामरयुगेन गलदलकानन पद्मम् मृत्युंजय भावयामि हृत्पद्मे मुक्तादपत्रं शशिकोटिशुभ्रं शुभप्रदं काञ्चनदण्डयुक्तं माणिक्य संस्थापित हेमकुम्भं सुरेश मृत्युंजय तेर्पयामि मणिमुकुरे निष्पटले त्रिजगद्गाढान्धकार सप्ताश्वे कन्दर्पकोटिसदृशं मृत्युंजय पश्य वदनमात्मीयं कर्पूरचूर्णं कपिलाद्यभूतं दास्यामि काले यसमन्वितं च समुद्भवं पावनगन्धधूपितं मृत्युंजयाङ्गं परिकल्पयामि वर्तित्रयोपेतमखण्डदीप्त्या तमोहरं बाह्यमथान्तरं च साध्यं समस्तामरवर्गहृद्यं सुरेश मृत्युंजय वंशदीपं राजानं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं हिङ्गूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः साकं सम्यगपूपसूपसहितं सद्योवृधेनाप्लुतं श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोषणं भुज्यतां कूष्माण्डवार्ताकपटोलिकानां फलानि रम्यानि चकारवल्याः सुपाकयुक्तानि ससौरभाणि श्रीकण्ठमृत्युञ्जय भक्षयेश शीतलं मधुरं स्वच्छं पावनं वासितं लघु मध्ये स्वीकुरु पानीयं शिवमृत्युञ्जय प्रभो शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितं कदलीफलसम्मिश्रं भुज्यतां मृत्युसंहर केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करा मिलितैः एलामरीचिमिलितं मृत्युञ्जय भुङ्क्ष्वपरमान्नं रम्भाचूतकपित्थकण्टकफलैः द्राक्षारसस्वादुमत् कर्जूरैर्मधुरेक्षुकण्डशकलैः सन्नारिकेलाम्बुभिः कर्पूरेण सुवासितैर्गुडजलैः माधुर्ययुक्तैर्विभो श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरं मनोज्ञरं भावनखण्डखण्डितान् रुचिप्रदान् सर्षपजीरकांश्च ससौरभान् सैन्धवसेवितांश्च गृहाण मृत्युञ्जय लोकवन्द्य हिङ्गूजीरकसहितं विमलामलकम् कपित्रमति मधुरम् विषघण्टाल्लवणयुतान् मृत्युञ्जय ते कयामि जगदीश एलाशुण्डीसहितं दध्यन्नं चारुहेमपात्रस्थम् अमृतप्रतिनिधिमाढ्यं मृत्युञ्जय भुज्यतां त्रिलोकेश नीराजनं निर्मलदीप्तिमद्भिः दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च घण्टानिनादेन समर्पयामि मृत्युञ्जयाय त्रिपुरान्तकाय